पूर्वतन कक्षायां एषः श्लोकः समाप्तः अस्ति न वा? आव्यस्यात्माक एव अर्थः तन्नाकादिकवे पुरा रौजद्वयो गुणः श्लोकत्वमागतः काव्यस्य मुख्यः अर्थः कः भवति इति चेत् सः ध्वन्यर्थः व्यङ्ग्यर्थः व्यङ्ग्यार्थः एव भवति. तत्रापि पुनः तस्य त्रयी भूमिष्टमासीत्, वस्तुरूपः अलङ्काररूपः रसरूपः. तत्रापि सः एव इत्युक्ते रसरूपः अर्थः एव काव्यस्य आत्मा इति. तथा च आदिकवेः वाल्मीकेः मनसि पूर्वं यः शोकः उत्पन्नः सः एव श्लोकत्वम् आगतः इति वर्णनं कृतमासीत्. तत्र शोकः इति यः भावः अस्ति, शोकः एव रसः न. तत्र रसस्तु करुणरसः, करुणरसस्य स्थायीभावः शोकः. शोकः एव अनन्तरं श्लोकत्वम् आगतः, नाम करुणरसः एव. भावः रसः एते सर्वेपि समानाः इत्युक्ते सर्वेपि आस्वाद्यन्ते इति कृत्वा. अतः सः शोकः इति भावः एव, सः एव अनन्तरं रसरूपेण परिणामं प्राप्नोत्, सः रसः एव काव्यस्य आत्मा इति उक्तम्. अग्रे पश्यामः अग्रिमं पद्यमस्ति षष्ठीकारिका. सरस्वती स्वां तदर्थवस्तु निश्यन्दमाना महतां
कवीनां,
निश्यन्दमाना महतां कवीनां,
निश्यन्दमाना महतां कवीनां.
अलोकसामान्यमभिव्यनस्ति,
अलोकसामान्यमभिव्यनस्ति
परिस्फुरन्तम् प्रतिभाविशेषम्,
परिस्फुरन्तम् प्रतिभाविशेषम्.
महतां कवीनां सरस्वती, महतां कवीनां वाणी यास्ति सा, महतां कवीनां सरस्वती सा. तदर्थवस्तु निश्यन्दमाना, तदर्थवस्तु, तदर्थवस्तु नाम तादृशं वस्तुतत्त्वं, ध्वनेः आत्मभूतं तत्त्वमिदस्ति, तादृशं तत्त्वभूतं वस्तुतत्त्वम् इत्यर्थः. तदर्थवस्तु तत्त्वभूतम् इत्यर्थः वस्तुतत्त्वम्. वस्तुतत्त्वं निश्यन्दमाना महतां कवीनां सरस्वती, वस्तुतत्त्वं प्रकाशयन्ती तादृशी, प्रकाशयन्ती महाकवीनां सरस्वती. तत्रूपं काव्यतत्त्वम् इदानीं यद्वर्णितमस्ति तादृशतत्त्वं निश्यन्दमाना, अन्तः तत्त्ववन्नु होरळिसुवन्तः महाकवियवाणि. निश्यन्दमाना इत्युक्ते यद् श्रावयति तादृशं निश्यन्दमाना. कथं निश्यन्दमाना? स्वादु निश्यन्दमाना, सम्यक् निश्यन्दमाना. निस्तारयन्ति महतां कवीनां सरस्वती या अस्ति सा सरस्वती. प्रतिभाविशेषम् अभिव्यनस्ति, सा किं करोति इत्युक्ते तस्य महाकवेः प्रतिभाविशेषं दर्शयति. इत्युक्ते कश्चन कविः अत्यन्तविशिष्टरसयुक्तं किञ्चित् काव्यं रचितवान् चेत् तस्य काव्यतत्त्वं तद् काव्यं प्रकाशयति किल. प्रकाशयन्ति महाकवेः वाणी किं करोति चेत् कवेः प्रतिभाविशेषं स्मारयति. कीदृशः प्रतिभाविशेषः इति चेत् परिस्फुरन्तं प्रतिभाविशेषं, सम्यक् परिस्फुरति, स्फुटतया प्रकाशते. तादृशं प्रतिभाविशेषं तत् अभिव्यनस्ति, अभिव्यञ्जयति. इत्युक्ते एतादृशं रसरूपं तत्त्वं सम्यक् प्रकाशयन्ति कवेः या वाणी अस्ति, सा वाणी कवेः प्रतिभाविशेषम् अभिव्यञ्जयति, अभिव्यनस्ति, अभिव्यञ्जयति. कीदृशं तद् प्रतिमाविशेषम् इति चेत् अलोकसामान्यम् लोकसामान्यम् न लोके बहवः कवयः भवन्ति सर्वेपि वयं वदामः किल इदानीं यः पञ्चपद्यानि लिखति सः अपि आत्मानं कविं मन्यते किन्तु तादृशाः बहवः आत्मानं कविं मन्यन्ते किन्तु वस्तुतः एतादृशः जनः यः अस्ति नाम काव्य आत्मभूतं रसतत्वं स्वकीयवाक्यैः यः प्रकाशयति तादृशस्य कवेः अथवा तादृशानां महतां कवीनां प्रतिमाविशेषम् किम् अभिव्यरस्ति अभिव्यञ्जयति प्रतिभाविशेषम् तत् कीदृशम् अलोकसामान्यम् लोकसामान्यम् न अलौकिकम् अलौकिकमेव अलौकिकम् प्रतिभाविशेषम् एतद् अभिव्यञ्जयति अभिव्यञ्जयति का कर्तृपदम् किमिति चेत् वाणी महाकवीनाम् वाणी कीदृशी वाणी या वाणी तादृशं वस्तु निश्चन्दयति निस्तारयति बहिरानयति सा वाणी महतां कवीनां परिस्फुरन्तं प्रतिभाविशेषम् अभिव्यनस्ति स च प्रतिभाविशेषः कीदृशः भवति इति चेत् अलोकसामान्यः भवति लोकसामान्यः न अलौकिकः एव तादृशम् अलोकसामान्यं प्रतिभाविशेषम् किं प्रतिभाविशेषम् अभिजनति अभिजनयति अत एव अनन्तरम् अत्र अस्ति कार्यकारणमस्ति वृत्तिमध्ये अस्ति तत् नाम वस्तुतत्वम् निश्यन्दमाना महतां कवीनां भारती मूले पद्ये तत्पुच्यते तस्य भारती इति शब्दान्तरं दत्तवान् अस्ति भारती अलोकसामान्यम् प्रतिभाविशेषम् परिस्फुरन्तम् अभिव्यनक्ति अन्वयम् कृतवान् अस्ति अर्थम् पुनः न दत्तवान् अलोकसामान्यम् प्रतिभाविशेषम् परिस्फुरन्तम् अभिव्यनक्ति येन अस्मिन् अतिविचित्रकविपरम्परावाहिनि संसारे अयम् संसारः कीदृशः अस्ति इति चेत् अत्र बहूनाम् कवीनाम् परम्परा एव आगता अस्ति अतिविचित्रकविपरम्परावगाहि कविं कवीनां परम्परा एव अवगाहते इत्युक्ते प्रवाहरूपेण आगता अस्ति तत्रापि संसारे कालिदासप्रभृतयः द्वित्राः पञ्चशाः वा महाकवयः इति गण्यन्ते कल्पनां कुर्वन्तु अद्यपर्यन्तं कति कवयः आगता स्युः लक्षाधिकाः कवयः अस्माकं देशे एव आगता स्युः किन्तु महाकविपदेन वक्तुं योग्याः कवयः कालिदासप्रभृतयः द्वित्राः पञ्चशाः वा भवितुमर्हन्ति इत्युक्ते यद्यद् लिखति तत्सर्वमपि कदाचित् काव्येषु उच्येत चेदपि तत्र काव्यस्य आत्मभूतं तत्त्वम् अस्ति वा नास्ति वा इति तद् परिशीलनीयं तद् येषां वाणीषु भवति ते एव वस्तुतः महाकवयः तेषां प्रतिभाविशेषः तत्र स्फुरितः भवति ते एव महाकवयः तादृशाः कालिदासप्रभृतयः द्वित्राः पञ्चशाः वा स्युः अग्रे इदं च अपरं प्रतीयमानस्य अर्थस्य सद्भावसाधनं प्रमाणम् तर्हि प्रतीयमानः अन्यः अर्थः अस्ति किल अन्यः अर्थः अस्ति इत्यस्य तस्य सद्भावस्य सद्भाव नाम अस्तित्वम् इति वदामि तस्य सद्भावस्य साधकम् अन्यदपि प्रमाणम् अत्र अस्ति किम् उक्तवन्तः पूर्वमेकमस्ति इति उक्तवन्तः एवं महतां कवीनां वाणीषु भवति इति सर्वम् उक्तवन्तः इदानीम् अन्यदपि एकं प्रमाणं वयं दर्शयामः किम् एकं प्रमाणं दर्शयामः कीदृशमिति चेत् प्रतीयमानस्य अर्थस्य सद्भावसाधनम् प्रतीयमानः अर्थोऽपि भवति तस्य अस्तित्वमपि अस्ति इत्यस्य साधकम् अन्यत् किञ्चित् प्रमाणं वयं दर्शयामः किं तत् प्रमाणम् इति चेत् वदति शब्दार्थशासनज्ञान
शब्दार्थशासनज्ञान
मात्रेणैव न वेद्यते
मात्रेणैव न वेद्यते
वेद्यते तु काव्यार्थ
वेद्यते तदि काव्यार्थ
तत्त्वज्ञैरेव केवलम्
तत्त्वज्ञैरेव केवलम्
तादृशः प्रतीयमानः द्वितीयः अर्थः अस्ति एव इत्यत्र प्रमाणभूताः जनाः सन्ति अस्माकं द्वितीयम् अर्थं ये सम्यक् अवगच्छन्ति तादृशाः जनाः अनुभवं ये प्राप्नुवन्ति तादृशाः जनाः अस्माकं समीपे सन्ति. द्वितीयं प्रमाणं किम् इति चेत् जनाः सन्ति प्रमाणं किन्तु ते के इति पृच्छति चेत् सर्वैः तत् नावगम्यते. कैः नावगम्यते इति चेत् शब्दार्थशासनज्ञानमात्रेणैव न भिद्यते. कश्चन अहमपि जानामि इति कृत्वा शब्दार्थशास्त्रं जानाति, नाम कस्य शब्दस्य कः अर्थः इति जानाति इति चिन्तयति. तादृशः यः अस्ति शब्दार्थशासनज्ञानम्, शब्दार्थशासनं नाम वस्तुतः व्याकरणम् इत्यर्थः, शब्दः कीदृशः तस्य अर्थः कीदृशः इति शासनं निष्करोति तद् शास्त्रं नाम व्याकरणशास्त्रम् इत्यर्थः. व्याकरणज्ञानमात्रम् अस्ति चेत् तावता एतत् न भेद्यते, शब्दार्थशासनज्ञानमात्रेणैव न भेद्यते. अतः कश्चन रामायणपुस्तकं पुरतः स्थापयित्वा प्रत्येकं शब्दमपि अवगच्छति, तस्य कोशकम् अर्थमपि अवगच्छति चेदपि तस्य ध्वन्यर्थं सः गृह्णन्ति इति नास्ति. शब्दार्थशासनं जानन्ति सः, शब्दार्थं ग्रहीतुं प्रभवति, ध्वन्यर्थं तु सः ग्रहीतुं न प्रभवति एव. अतः शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते न ज्ञायते. तर्हि कैः ज्ञायते इति चेत् वेद्यते तत् काव्यार्थतत्त्वज्ञैरेव केवलम्. काव्यार्थतत्त्वं ये जानन्ति, काव्ये यदर्थतत्त्वमस्ति इदानीं तु वयं ध्वनितत्त्वं सर्वं वदन्तः स्मः, एतत् ये जानन्ति ते केवलम् अवगन्तुं शक्नुवन्ति, अन्ये सर्वे न. अतः इदं सम्यक् अस्माभिः अवगन्तव्यं यत् श्लोकगताः सर्वेपि शब्दाः ज्ञाताः, तेषां सर्वेषाम् अर्थाः अवगताः, व्याकरणविशेषाः ज्ञाताः चेदपि तेन काव्यरसास्वादः भवति इति वक्तुं न शक्यते. अग्रे किं श्लोकः अग्रे श्रोत्थः यस्मात् केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते, सः अर्थः तदेव प्रतीयमानः अर्थः यः अस्ति सः काव्यार्थतत्त्वज्ञैरेव केवलं ज्ञायते. यदि च वाच्यरूप एव असौ अर्थः स्यात् तद्वाच्यवाचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात्. किमर्थं तैरेव ज्ञायते इति चेत् सः वदति वाच्यरूपः एव अर्थः भवति चेत् ध्वन्यर्थः अस्ति किल, सः ध्वन्यर्थः यदि वाच्यरूपः एव भवति तर्हि वाच्यवाचकपरिज्ञानादेव तत्प्रतीतिः स्यात्. सामान्याः ये सन्ति तेषां वाच्यवाचकपरिज्ञानमस्ति. वाच्यवाचक नाम वाचकः नाम एकः शब्दः, वाच्यः नाम तस्य अर्थः, यदि रामः इति एकः शब्दः अस्ति, राम इति लिखति किल, सः शब्दः वाचकः. अर्थः नाम दशरथस्य पुत्रः एकः जनः अस्ति किल, यम् अर्थं भवन्तः मनसा कल्पयन्ति सः अर्थः वाच्यार्थः. रामः इति शब्दः वाचकः, दशरथपुत्रः जनः यः अस्ति सः वाच्यः, घटी इति शब्दः वाचकः. एतद् वस्तु यदस्ति एतद् वाच्यः अर्थः अस्ति, एतद् वाच्यवाचकज्ञानम्, एतद् ज्ञानमस्ति चेत् वाच्यवाचकज्ञानम् यदस्ति तस्मादेव प्रतीतिः स्यात्, तस्य धन्यस्तस्यापि प्रतीतिः भवेत्. किन्तु तथा न भवति, वाच्यवाचकपरिज्ञानादेव तत्प्रतीतिः स्यात्, तस्य धन्यस्तस्य प्रतीतिः स्यात्. धन्यत्वोऽपि यदि वाच्यार्थः इति वदन्ति तर्हि वाच्यवाचकज्ञानमात्रेण सम्यर्थस्यापि प्रतीतिः भवेत्. कष्टमस्ति वा भगिनी, अर्थः भवति वा? पश्यतु, एक वाच्यवाचक इति शब्दद्वयमस्ति, वाचकः नाम एकः शब्दः, यदि पुस्तकमस्ति भवति लिखति किल पुस्तकम् इति एकं शब्दं लिखति, सः शब्दः एकः वाचकः शब्दः. तं शब्दं यदा शृणोति भवति सः अर्थः भवति, अमृति स्फुरति एतादृशं वस्तु स्मरति किल, अर्थः एषः अर्थः. पुस्तकम् इति शब्दः वाचकः, एतद् वस्तु वाच्यः अस्ति. इति सर्वेषां शब्दानां कश्चन अर्थः भवति एव. अर्थः नाम एषः वाच्यार्थः अस्ति. शब्दः अस्ति वाच्यार्थः. शब्दम् अर्थं केवलं जानाति चेत् ध्वन्यर्थः ज्ञायते इति वदति चेत् सर्वान् शब्दान् बहवः जानन्ति एव. तेषां सर्वेषां ध्वन्यर्थबोधः भवेत् तत्तु न भवति. अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणात् ये अत्र केवलं परिश्रमं कृतवन्तः. वाचकः शब्दः वाच्यार्थः तद्विषये परिश्रमं कृतवन्तः. उदाहरणे एकम् उदाहरणं वक्तव्यं चेत् भवन्तः सर्वे संस्कृतं सम्यक् जानन्तु इति कृत्वा अहमेकं डिक्षनरि ददामि भवन्तः. अस्मिन् डिक्षनरि मध्ये त्रिसहस्रं शब्दाः सन्ति. सर्वेषां शब्दानाम् अर्थाः सन्ति. भवतां सम्यक् कण्ठस्थम् अभवत्. एकैकस्यापि शब्दस्य अर्थं जानन्ति. तत्र भवतां परिश्रमः अस्ति चेत् तावता वाच्यवाचकलक्षणमात्र कृतपरिश्रमाणां काव्यतत्त्वार्थभावनाविमुखात्मनाम् किन्तु काव्यतत्त्वार्थ तत्त्वज्ञानस्य अवगमने भवतां विमुक्षा अस्ति चेत् तेषाम् स्वरश्रुत्यादिलक्षणमिव अप्रगीतानां गान्धर्वलक्षणम् लक्षणविदाम् अगोचरः एव असौ अर्थः. तावता ध्वन्यर्थः नावगम्यते. कथम् इति चेत् अन्यदेकम् उदाहरणं वदति. सङ्गीतशास्त्रमस्ति. सङ्गीतशास्त्रे स्वरश्रुत्यादिलक्षणम् केचन जानन्ति. स्वरालया काला इत्यादि सर्वं वदन्ति किल, तस्य व्यवस्थितं लक्षणं सर्वं कस्यचित् कण्ठे अस्ति. इत्युक्ते गायति चेत् एतद् दैवतं वा मध्यमं वा किमपि वदन्ति किल, तत्सर्वमपि सम्यक् अवगच्छति. किन्तु तावता तत्सर्वं जानाति इति कारणतः सङ्गीतरसानुभवः भवति इति वक्तुं न शक्यते. अन्ये केचन तद् न जानन्ति एव, तथापि रसास्वादं प्राप्नुवन्ति. अतः केवलं लक्षणज्ञानमात्रेण ध्वन्यर्थस्य प्रतीतिः भवति इति वक्तुं न शक्यते. अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणाम् वाच्यानां वाचकानां लक्षणं किमस्ति इति विषये ये परिश्रमं कृतवन्तः तेषां काव्यतत्त्वार्थभावनाविमुखानां काव्यतत्त्वार्थभावनाविषये ते विमुखाः सन्ति. शब्दम् अर्थं च जानन्ति. तादृशानां जनानां तु अगोचरः एव भवति ध्वन्यर्थः. कथम् इति चेत् स्वरश्रुत्यादिलक्षणमिव आप्रगीतानां गान्धर्वलक्षणविदाम् अगोचरः. समीचीनगीतानामर्थः गान्धर्वलक्षणं केवलं ये जानन्ति तेषां यथा अगोचरं भवति तथा एतेषामपि अर्थः ध्वन्यर्थः अगोचरः एव. आप्रगीतानाम् इति अत्रीतानां एकक्षणं पश्यामि. पुराणजनादयः श्रुतिं नाम शब्दत्वं लक्षण्यमात्रकार्ये आदिशब्देन प्रकृष्टं गीतं येषां ते प्रगीता अप्रगीता सत्यं गातुं वा प्रारब्धाः इत्युक्ते गातुम् आरम्भं कृतवतां. लक्षणं केवलं ज्ञात्वा गातुं गानस्य आरम्भं ये कृतवन्तः तेषां यथा किं सङ्गीतानुभावः न भवति तथा शब्दार्थज्ञानं केवलं ये ज्ञातवन्तः तेषां तु ततः प्रतीतिः ध्वन्यर्थप्रतीतिः न भवति इति एव असौ अर्थः एवासावर्थः. गान्धर्वलक्षणविदाम् अगोचरः एव असौ अर्थः. एवम् वाच्यव्यतिरेकिणः व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्य एव इति दर्शयति. एवम् अनेन प्रकारेण वाच्यव्यतिरेकिणः वाच्यात् भिन्नस्य व्यतिरेके भिन्नमित्यर्थः वाच्यव्यतिरेकिणः वाच्यात् भिन्नस्य व्यङ्ग्यस्य अर्थस्य सद्भावं प्रतिपाद्य व्यङ्ग्यार्थः वाच्याभिन्नः व्यङ्ग्यार्थः अस्ति इति प्रतिपादनं कृत्वा प्रतिपाद्य प्राधान्यं तस्य एव इति दर्शयति. एतावत्पर्यन्तं किं कृतवान्? वाच्याभिन्नः व्यङ्ग्यार्थः अस्ति इति दर्शितवान्. दर्शयित्वा इदानीं තස්සේව ආධාන්‍යම් इति දැක්කේටි අග්‍රිම වාක්‍යයේ තස්ස න්‍යාතහ සීතේ සෞත්තම බව දැන් අග්‍රිම වාක්‍යයේ තස්සේව ආධාන්‍යම් इति දැක්කේටි ප්‍රාධාන්‍යම් තස්සේව इति දැක්කේටි ඉරණි මොකදේ යෝත්තත්ත්‍යක්ති සාමර්ථ්‍ය යෝගී
යෝත්තත්ත්‍යක්ති සාමර්ථ්‍ය යෝගී
යෝත්තව උනන්දුවෙන්නේ ಕೋತ್ಕತ್ತ ವ್ಯಕ್ತಿ ಸಾಮರ್ಥ್ಯ ಯೋಗಿ
ಕೋತ್ಕತ್ತ ವ್ಯಕ್ತಿ ಸಾಮರ್ಥ್ಯ ಯೋಗಿ
ಶಬ್ದಕಚ್ಚನ ಯತ್ನತಃ ಪ್ರತ್ಯಭಿಜ್ಞೇಯೋ
ಯತ್ನತಃ ಪ್ರತ್ಯಭಿಜ್ಞೇಯೋ
ತೌ ಶಬ್ದಾರ್ಥೌ ಮಹಾಕವೇಃ
ತೌ ಶಬ್ದಾರ್ಥೌ ಮಹಾಕವೇಃ
ಸರಿ ಮಹಾಕವಿಃ ಕಚ್ಚನ ಪ್ರಯೋಗಂ ಕೃತವಾನ್ ಅಸ್ತಿ ಚೇತ್ ತತ್ರಃ ಸಾರ್ಥ ಕಶನ ಅರ್ಥ ಭವತಿ ಇವ ಕೋರ್ಥ ಸಹ ಅರ್ಥ ಸಹ ನಾಮ ಕಥ ಧ್ವನಿ ಏತಾವತ್ ಪರ್ಯಂತ ಯಹ ಅರ್ಥ ಉಕ್ತ ಸಹ ಅರ್ಥ ಕೋರ್ಥ ಕಶನ ಭವತಿ ಇವ ತರ್ಹಿ ಸಹ ಅರ್ಥ ಕೇವಲ ಭವತಿ ವಾ ಇತಿ ಚೇತ್ ತದ್ವ್ಯಕ್ತಿ ಸಾಮರ್ಥ್ಯ ಯೋಗಿ ಕಶನ ಶಬ್ದ ಅಪಿ ಭವತಿ ತಾದೃಶಸ್ಯ ಅರ್ಥಸ್ಯ ಪ್ರತಿಪಾದನಾರ್ಥಂ ಶಬ್ದ ಕಶನ ಉಪಯುಕ್ತ ಸ್ಯಾದೇವ ಕಿಲ ಶಬ್ದಂ ವಿನಾ ಅರ್ಥಸ್ಯ ಪ್ರತೀತಿ ನ ಭವತಿ ಅತಃ ತಾದೃಶಂ ಅರ್ಥಂ ಅಭಿವ್ಯಂಜಯಿತುಂ ಸಹ ತತ್ಸಾಮರ್ಥ್ಯ ಸಹಿತಂ ಏಕಂ ಶಬ್ದಂ ಪ್ರಯುಕ್ತವಾನ್ ಭವತಿ ಅತಃ ಅರ್ಥಃ ಅನಂತರಂ ತದ್ವ್ಯಕ್ತಿ ಸಾಮರ್ಥ್ಯ ಯೋಗಿ ಅದನ್ನು ಅಭಿವ್ಯಂಜಿಸುವುದಕ್ಕೆ ಸಮರ್ಥವಾದ ತದ್ವ್ಯಕ್ತಿ ಸಾಮರ್ಥ್ಯ ಯೋಗಿ ಕಶ್ಚನ ಶಬ್ದ ಅಪಿ ಏನ ಪ್ರಯುಕ್ತ ಭವತಿ ಸೌಧೌ ಅಪಿ ಯತ್ನತಃ ಪ್ರತ್ಯಭಿಜ್ಞೇಯೌ ಅಸ್ಮಾಭಿಗೆ ಪ್ರಯತ್ನಾತ್ ಅವಗಂತವ್ಯೋ ಪ್ರತ್ಯಭಿಜ್ಞೇಯೌ ಗುರುತಿಸಬೇಕು ಕವೀನಾಂ ಪ್ರಯೋಗೇ ತಾದೃಶಃ ಅರ್ಥಃ ಸಹ ಚೇ ತಾದೃಶಃ ಶಬ್ದಃ ಸಹ ಪ್ರಯುಕ್ತಃ ಚೇತಿ ಅಸ್ಮಾಭಿಗೆ ಯತ್ನತಃ ಗವೇಷಣಂ ಕರಣಂ ಪ್ರತ್ಯಭಿಜ್ಞಾನಂ ಕರಣಂ ಅವಗಂತವ್ಯಂ ಅಸ್ಮಾಭಿಗೆ ಮಹಾಕವೇ ಶಬ್ದಾರ್ಥ ಮಹಾಕವಿ ಈದೃಶಸ್ಯ ಅರ್ಥಸ್ಯ ಪ್ರಯೋಗಂ ಕೃತವಾನ್ ಅಸ್ತಿ ಈದೃಶಸ್ಯ ಶಬ್ದಸ್ಯ ಪ್ರಯೋಗಂ ಕೃತವಾನ್ ಅಸ್ತಿ ಇತಿ ಅಸ್ಮಾಭಿಃ ಪ್ರಯತ್ನೇನ ಅವಗಂತವ್ಯ ನೋ ಚೇತ್ ನ ಜಾಯತೆ ಅಸ್ಮಾಕಂ ಸತ್ಯಾಂ ದಿಶಿ ಇತಿ ಪರಿಶ್ರಮಃ ಅಸ್ತಿ ವಯಂ ಅವಗಂತುಂ ಶಕ್ನುಮಃ ಪರಿಶ್ರಮಮೇವ ನ ಕುರ್ಮಃ ಚೇತ್ ನ ಅವಗಮ್ಯತೆ ಲೋಕಂ ಪಠಾಮಃ ಸಾಮಾನ್ಯಂ ಅರ್ಥಂ ಅವಗಚ್ಛಾಮಃ ತದೇವ ಇತಿ ಭವಿಷ್ಯಮರ್ಹತಿ ಭಾರತೀಯ ಕಾವ್ಯ ಮೀಮಾಂಸಾ ಇತಿ ಕನ್ನಡ ಭಾಷಾ ಪುಸ್ತಕಮಸ್ತಿ ಸತ್ಯ ವಿಷಯ ದಿನಕ್ಕೆ ಸೂಕ್ತವಾದ ಸೀನಂ ಶ್ರೀಕಂಠಯ್ಯ ಇತಿ ಕನ್ನಡ ಭಾಷಾ ಪ್ರಸಿದ್ಧ ಶಾಸ್ತ್ರಕಾರ ಅಸ್ತಿ ತೇನ ತದ ಪುಸ್ತಕ ತತ್ರ ಏಕತ್ರ ಸಹ ಲಿಖತಿ ಕಥಂ ಭವತಿ ಇತಿ ಚೇತ್ ಧ್ವನ್ಯರ್ಥಾಃ ಕಥಂ ಭವತಿ ಚೇತ್ ಸಹ ಏಕಂ ಉದಾಹರಣ ವದತಿ ಮಹಾಭಾರತ ಯುದ್ಧ ಕದಾಚಿತ್ ದ್ರೋಣಸ್ಯ ಅನಂತರಂ ಕರ್ಣಸ್ಯ ಚ ಮಧ್ಯೆ ವಿವಾದಃ ಪ್ರವರ್ತತೆ ಕರ್ಣಃ ಆರಂಭತಃ ಇತಿ ಕಿಂ ವದತಿ ಅಹಮೇವ ಸೇನಾಪತಿಃ ಭವಾಮಿ ಇತಿ ಕೋದಾನ ಭವತಿ ತದಾನಂ ಕರೋತಿ ತದಾ ಸಃ ಅಹಮೇವ ಸೇನಾಪತಿಃ ಭವಾಮಿ ಮಹ್ಯಮೇವ ಸೇನಾಪತ್ಯಂ ದದಾತಿ ಇತಿ ಸಃ ವದತಿ ತದಾ ದ್ರೋಣಸ್ಯ ವಚನಂ ದ್ರೋಣಸ್ಯ ವಾ ಭೀಷ್ಮಸ್ಯ ವಾ ಸಮ್ಯಕ್ ನ ಸ್ಮರಾಮಿ ತಸ್ಯ ಏಕಂ ವಚನಮಸ್ತಿ ತದ ಕನ್ನಡ ಕಾವ್ಯಸ್ಯ ತತ್ರ ಸಹ ಏಕಂ ಶಬ್ದಂ ಪರಿಯಂತೆ ಸೂಳ್ ಬರ್ಪುದು ತಡೆ ಇತಿ ಏಕಂ ವಾಕ್ಯಂ ಲಿಖತಿ ಸೂಳ್ ಇತಿ ಏಕಃ ಶಬ್ದ ತಸ್ಯ ಕಃ ಅರ್ಥ ಇತ್ಯುಕ್ತೆ ಪರ್ಯಾಯ ಇತ್ಯರ್ಥ ಭವತಃ ಅಪಿ ಪರ್ಯಾಯ ಆಗಚ್ಚತಿ ಪ್ರತೀಕ್ಷತಾ ಇತಿ ವದತಿ ಸುತೆ ಕರ್ಣಂ ಉದ್ದೇಶ್ಯ ಸಹ ವದತಿ ಅಹಮಪಿ ಸೇನಾಪತಿ ಭವಿಷ್ಯಾಮಿ ಇತಿ ವದತಿ ತದಾ ಸಹ ವದತಿ ಭವತಃ ಅಪಿ ಪರ್ಯಾಯ ಆಗಮಿಷ್ಯತಿ ಪ್ರತೀಕ್ಷತಾ ಇತಿ ವದತಿ ಸಾಮಾನ್ಯ ಪಠಾಮಸ್ಯ ಕಃ ಅರ್ಥ ಭವತಿ ಭವತಃ ಕ್ರಮಶಃ ಭವತಃ ಪರ್ಯಾಯ ಭವತಿ ಇದು ಸಮ್ಯಕ್ ಪರಿಶೀಲನಂ ಕುರುಮಃ ಚೇತ್ ಪಾಂಡವ ಪಕ್ಷೇ ಆರಂಭತಃ ಅಂತ ಪರ್ಯಂತಂ ಏಕದೇವ ಸೇನಾಪತಿ ಸಹ ದೃಷ್ಟಿಲ್ಲ ಕೌರವ ಪಕ್ಷೇ ಸೇನಾಪತಿತ್ವ ಯದಂತೆ ಯಥಾ ಯಥಾ ದಿನಾನಿ ಗಚ್ಚಂತೆ ಪರ್ಯಾಯ ಉಡುಪಿ ಪರ್ಯಾಯ ಅಷ್ಟಮಠಾನಾಂ ಪರ್ಯಾಯ ಅತ್ರ ಕಸ್ಯಾಪಿ ನಿಶ್ಚಿತಂ ನಾಸ್ತಿ ಇತ್ಯುಕ್ತೆ ಸೇನಾಪತಿ ರೂಪೇಣ ಕೋಪಿ ಅತ್ರ ಯಶಸ್ವಿ ನ ಭವಿಷ್ಯತಿ විඥානසේ සහ ගතහ ගෝලනසේ සහ ගච්ඡති කෘපහාගච්ඡති සහ ගච්ඡති කරණහාගච්ඡති සහ ගච්ඡති අනන්තරම් මේක ශල්්‍යහාගච්ඡති සොපි ගච්ඡති කෘපහාගච්ඡති ශල්්‍යහාගච්ඡති සොපි පරියායේ ප්‍රශ්නය කෝපිතේ ශාස්ත්‍රත රූපේන විද්ධ සමාප්ති පරියන්තම් කෝපි නතිස්සති තථා නදීරහ තත්ත්‍ර යෙහි සද්ගයන් මහතේස අනුභවත අපි කතාන් සංස්ලබ්ධේ කිංචි කිතේ වයමත්ම අවබෝධ සිසුතු කවිහි සාගෘතම් කම් ශබ්දෝ දිට්ඨවානති කහ ශබ්දාන අර්ථහ කහ ඉතේකද අත්මාදී යත්නතහ යත්නක ප්‍රත්‍යවිඥේනෝ තෝ සබ්දාර්ථෝ මහාකවේ මහාකවේ තෝ සබ්දාර්ථෝ සහ ශබ්දහ සහ අර්ථස්ය අස්මාදී ප්‍රත්‍යවිඥාතව්‍යෝ ග්‍රහීතව්‍යෝ කර්මෝති අවගන්තව්‍යෝ යෝ නුවස්සහ තද්වෙද්දි සාමර්ථ්‍ය යෝගී ශබ්දස්ස කච්චන න ශබ్దමාත්‍රම් ශබ్దමාත්‍රම් න ශබ్దෝපි අර్థෝපි ശബ്ദമാത്രം മഹാകവേ പ്രത്യവിജ്ഞേയവ്യഞ്ജകാഭ്യമേവ സുപ്രയുക്താഭ്യം മഹാകവിത്വലാഭോ മഹാകവീന വ്യംഗ്യാർത്ഥ വ്യംഗ്യാർത്ഥം വ്യംഗയിതും യോഗ്യ ശബ്ദ വ്യംഗ്യത വ്യംഗ്യേതയമേ അസ്മാഭിഃ മഹാകവിഭിഃ സമ്യക് പ്രയുക്തം ഭവതി തസ്യ അന്വേഷണം അസ്മാഭിഃ കർത്തവ്യം സുപ്രയുക്താഭ്യാം മഹാകവിത്വലാഭോ മഹാകവിനഃ യദി മഹാകവയഃ തഥാ വിചിന്ത്യ സമ്യക് പ്രയോഗം കൃതവന്തഃ ഭവന്തി തർഹി ഏവ തേഷാം മഹാകവിഃ അന്യഥാ സാമാന്യഃ കവിഃ പരിഗണ്യഃ ഏവം പ്രയോഗം ഏ കൃതവന്തഃ തേഷാമേവ മഹാകവിത്വലാഭപ്രാപ്തിഃ മഹാകവിത്വം ഇതി ഖ്യാതിപ്രാപ്തിഃ തേന ഭവതി വാച്യവാചകർത്തനാമാത്രേണ അത വാച്യവാചകാരത്വം യദസ്തി താവരേ വൈശിഷ്ട്യം ഗൃഹീത്വാ കാവ്യാനി രസിതാനി ഭവന്തി വാച്യം വാചകം തത്ര ശബ്ദവൈശിഷ്ട്യം ശബ്ദചിത്രം അർത്ഥചിത്രം ഇതി വരാമഃ തദേവ അസ്തി ചേതേന മഹാകാവ്യത്വം ന പ്രാപ്യതെ താദൃശപ്രജ്ഞാനി കിം വദന്തി പണ്ഡി ആധുനികസാഹിത്യേ ശബ്ദമാത്ര ചമത്കാരം യത്ര അസ്തി താദൃശം ഭവതി ചേത് കിഞ്ചിത് സന്തോഷം ജനയത് നാസ്തി ഇതിന് കിന്തു മഹാകവിത്വപ്രാപ്തിഃ താവതാം താദൃശ ശബ്ദഹതഃ അർത്ഥഹതഃ മഹാകവിനാ സഹ പ്രയുക്തഃ അസ്തി അസ്മാഭിഃ അവഗന്തവ്യം താദൃശ ശബ്ദാർത്ഥയോഃ പ്രയോഗേനൈവ മഹാകവിത്വം ഇതി ന വാക്യ വാക്യവാചക രചനാമാത്രേണ വ്യംഗ്യവ്യഞ്ജകയോ പ്രാധാന്യേ യത് വാച്യവാചകാമേവ പ്രഥമം ഉപാദധത്തെ കവയ തദപി യുക്തമേവ ഇത്യാഹ തരി ഭവന്തഃ കിം വദന്തി വ്യഞ്ജകഃ ശബ്ദഃ വ്യംഗ്യഃ അർത്ഥഃ ആരംഭേ ഉക്തവാൻ കില വാച്യഃ വാചകഃ ഇതി വാചകഃ ശബ്ദഃ വാച്യഃ അർത്ഥഃ അസ്തി എവം വ്യഞ്ജകഃ ശബ്ദഃ വ്യംഗ്യഹാർത്ഥോപി ഭവതി സാനന്തരകാരിക ദ്വിതീയ വ്യംഗ്യവ്യഞ്ജക വ്യഞ്ജകം ഏകത്ര വാച്യവാചകം ഏകത്ര ദ്വയമപി അസ്തി ഭവന്തഃ കിം വദന്തി വ്യംഗ്യവ്യഞ്ജകയോഃ മഹത്പ്രാധാന്യം ഇത്യുക്തവന്തഃ തഥാപി കവി വാച്യവാചകയോഃ പ്രയോഗം ഭവതി സമസ്യേവ കില ഇതി പൃച്ഛതി ചേത് വ്യംഗ്യവ്യഞ്ജകയോഃ പ്രാധാന്യേതി തയോഃ പ്രാധാന്യമസ്തി ചേത് യു വാച്യവാചകാമേവ പ്രഥമം ഉപാദത്തെ കവയ കവയ കിം കുറവന്തി ചേത് പ്രഥമം വാച്യവാചകയോ ഉപാദാനം കുറവന്തി തടേ പ്രഥമം ഗൃഹന്തി തസ്യ അഭ്യാസം കുറവന്തി കിമർത്ഥം ചേത് തദ്യുക്തമേവ തദ് ഉചിതമേവ किमर्थम् इति चेत् आलोकार्थीय आदीपशिखायाम्
यत्नवान् जनः तदुपायतया
कश्चन जनः आलोकार्थी अस्ति. आलोकः नाम प्रकाशः.
आलोकार्थी चेत् आलोकार्थो इति अस्ति.
आलोकार्थी जनः इति प्रकारः. आलोकार्थी कश्चन जनः प्रकाशम् इच्छति सः. किन्तु किं निमित्तं सः प्रयत्नं करोति इति चेत् दीपशिखायां यत्नवान् भवति. दीपशिखा दीपज्वाला दीपज्वालां ज्वालयितुं सः प्रयत्नं करोति. सः प्रकाशम् इच्छति सर्वत्रापि. किन्तु प्रयत्नं कुत्र करोति इति चेत् दीपं ज्वालयितुं सः प्रयत्नं करोति. दीपशिखायां यत्नवान् भवति इत्युक्ते दीपशिखा ज्वालिता चेत् तेन सर्वत्र प्रकाशः भवति. अतः प्रथमं वाच्यविषये वाच्यवाचकविषये प्रयत्नः करणीयः. एतत् सिद्धं चेत् अनन्तरं सन्सिद्ध्यति. एतस्य उपादेयत्वं तद् उपायतया एतस्य उपायः. तस्य अयम् उपायः व्यङ्ग्यार्थं प्राप्तुम् अयं वाच्यार्थः उपायः भवितुम् अर्हति. तथा आलोकार्थी यथा जनः दीपशिखायां यत्नवान् भवति तद्वत् तदुपायतया नाम व्यङ्ग्यार्थस्य उपायत्वेन वाच्ये अर्थेति सः आदृतः भवति. वाच्यार्थेति सः आदरवान् भवति एव. इत्युक्ते वाच्यार्थमुखेनैव व्यङ्ग्यार्थस्य प्रतीतिः भवितुम् अर्हति. अतः सः वाच्यार्थविषयेपि सः प्रयत्नं करोत्येव. अतः यः महाकविः अस्ति सः वाच्यार्थविषये चिन्तनमेव न कुर्यात् इति न वक्तव्यम्. व्यङ्ग्यार्थस्य प्रतीतिनिमित्तं वाच्यार्थः उपायः भवितुमर्हति. अतः तदुपायत्वेन वाच्यार्थस्य विषयेपि सः यत्नवान् भवति चेत् तत्र दोषः नास्ति इति तात्पर्यम्. आलोकार्थी यथा दीपशिखायां यत्नवान् जनः तदुपायतया तद्वत् वाच्ये अर्थे तदादृतः भवति आदरवान् भवति कविः. यथा हि तदेव वर्णयति आलोकार्थी सन्नपि दीपशिखायां यत्नवान् जनः भवति तदुपायतया उक्तमेव. किञ्चित् सः अन्वयम् अन्यथा कृत्वा उक्तवान् न हि दीपशिखामन्तरेण आलोकः सम्भवति. किमस्ति इति चेत् दीपशिखां विना अन्तरेण विना दीपशिखामन्तरेण आलोकः न सम्भवति. अतः वाच्यार्थमन्तरेण साक्षात् व्यङ्ग्यार्थस्य प्रतीतिः इति भवितुमेव नास्ति. तद्वत् व्यङ्ग्यमर्थं प्रति आदृतः जनः आदरवान् जनः वाच्ये अर्थे यत्नवान् भवति. अनेन प्रतिपादकस्य कवेः व्यङ्ग्यमर्थं प्रति व्यापारः दर्शितः. इत्युक्ते अन्ततो गत्वा व्यङ्ग्यं प्रति एवं व्यापारः भवति. व्यङ्ग्यार्थं प्रति गमनम् अनेन प्रकारेण भवति इति व्यापारः दर्शितः भवति. प्रतिपाद्यस्यापि तं दर्शयितुमाह. अग्रे वदति यथा पदार्थद्वारेण यथा पदार्थद्वारेण वाच्यार्थस्थं प्रतीयते वाच्यार्थपूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः न प्रतिपत्तस्य वस्तुनः प्रतिपत् इति लिखित्वा अस्मोपि दर्शितः इति प्रतिपत्तस्य वस्तुनः तदेव उत्तमं. प्रतिपत्तस्य वस्तुनः इति उचितस्य व्याख्यानमपि तस्य लिखितमस्ति. इदानीम् एकं वाक्यमस्ति इति चिन्तयति. रामः अरण्यम् अगच्छत् इति किमपि एकं वाक्यमस्ति. तत्र त्रीणि पदानि सन्ति. कानि पदानि? रामः अरण्यम् अगच्छत् इति त्रीणि पदानि सन्ति. प्रत्येकं पदस्यापि एकः अर्थः अस्ति. रामः नाम दशरथपुत्रः इति एकः अर्थः. वनं नाम वृक्षादिभिः उपेतं चिन्तनस्थानम् इत्यस्ति. ගැක්කදී තුතින් සමනානුකූල ව්‍යාපාරම් සංස්කෘතමාන භූත කාලේ ඉති එක අර්ථයක් කියලා. කතම වස්තුතහ අස්මාකම් ප්‍රතීති භවති ඉති චේද පදාර්ථ ඥානේන අත්‍යර්ථ ඥානම් භවති. සර්වේතම් පදානාම් අර්ථාස්මාදී ඥායතේ පදාර්ථ ඥානේන අනන්තරම් අත්‍යර්ථ ඥානම් භවති. තත්ත්ව පුරහ විචාරාස්ති ඒකයි ගතපදස්ස භවති අනන්තරම් වා අතෝ මිනිස්වා භවති වා ඉත්‍යාදි මහදී කන්ත චින්තාස්ති ඉදනි මස්මා විතර විශේෂින්තන කරන්නේ. කිමිතේ පදාර්ථ ద్వයේව වාක්‍යාර්ථ ප්‍රතිතිහි ඉති තුනේද පදාර්ථනම් ප්‍රතිති භවති අනන්තරම් වාක්‍යාර්ථ ප්‍රතිති භවති නව තත්ත්වයෙන් සේකද ජයතේ අතහ පදාර්ථ ద్వයේන වාක්‍යාර්ථ සම්ප්‍රතියේ සම්‍යක් ප්‍රතියේ යථා සද්වේව වාක්‍යාර්ථ ద్వයේන ඒව යෝගාර්ථස්‍යාවේ අවගමනම් වෙති. තදේ වක්‍රණිතේ වාච්‍යාර්ථ පූර්විකා ඒව වාච්‍යාර්ථ ප්‍රථමං භවති තත් පූර්විකා ඒව වාච්‍යාර්ථ පූර්විකා ඒව ප්‍රතිපත් වස්තුනහ ප්‍රතිපත් ප්‍රතිපත් නාම ඥානම් මෙතරස්තර ලෙස වස්තුනහ ප්‍රතිපත් වස්තුනහ අවගමනම් වස්තුනම් කීරිහම් ගුණ්‍යස්සෝපි දක්ෂනාස් කියලා කාණසත්ත්ව වස්තුනහ අවගමනම් ප්‍රතිපත් නාම ඥානම් වාච්‍යාර්ථ පූර්විකා ඒව භවති. එතකොට ප්‍රථම වාචාර්ථ වලෙද්දී වාචාර්ථ ద్వාරා ඒව සංඥාර්ථ ප්‍රතිපදිතී භවති. ඉතතේ වාචාර්ථ නවශිතය භවති භවන වක්තුමේව නාරදති. දැක්කන වාචාර්ථ අපේක්ෂිත හේව තද්වාරා ඒව අනන්තර නිංගාර්ථසේ බෝධන වෙතුමර. తత్ర కదాచిత్ වාචාර්ථ විඤ්ඤාර්ථයෝර් මැදේ කීකරකහ සම්බන්ධහ తද් పూర్వమాగතං කියලා. ඉදිනේ చే රූපේනා නිචේ විදි රූපේනා බින්නම් බින්නම් කියව බෝධිවරයි. किंतु वाच्यार्थ सर्वथा नापेक्षित है वैसे वक्तुं नारहति. वाच्यार्थ पूर्विका एव तस्य वस्तुनः नाम व्यङ्ग्यार्थस्य प्रतिपत् ज्ञानम् अवगमनम् भवति. अतः तद्वत् यथा पदार्थद्वारेण वाच्यार्थः सम्प्रतीयते तद्वत् वाच्यार्थ पूर्विका प्रतिपत् भवति. कस्य तस्य वस्तुनः प्रतिपत् वाच्यार्थ पूर्विका एव भवति. ప్రాధాన్యం यथा न व्यालुप्यते तथा दर्शयति. वाच्यार्थ द्वारा व्यंग्यार्थस्य प्रतीति उक्तम्. तर्हि व्यंग्यार्थः प्रधानः इति कथं वदति? एतद्द्वारा एव किल अतः एतदेव प्रधानम् इति वदामः इति वदति चेत् वाच्यार्थ प्रतीति पूर्वतत्वेऽपि वाच्यार्थ प्रतीति पूर्वतत्वम् अस्ति चेदपि तत्प्रतीतेः व्यंग्यार्थस्य प्राधान्यं यथा न व्यालुप्येत तथापि व्यंग्यार्थस्य प्राधान्यं यथा न नश्येत् तथा दर्शयति. इदानीं पूर्वपक्षः किमिति ज्ञातो वा? वाच्यार्थं विना व्यंग्यार्थस्य प्रतीतिरेव न भवति इति भवन्तः उक्तवन्तः. पितरं विना पुत्रः न उत्पद्यते एव, अतः पिता एव प्रधानः इति वदति चेत् वक्तुं शक्यते. तद्वत् इदानीम् अत्र वाच्यार्थगुणः व्यङ्ग्यार्थस्य प्रतीतिरेव न भवति, अतः वाच्यार्थेन प्रधानः इति वदति चेत् व्यङ्ग्यार्थस्य अप्राधान्यमागतं किल इति चेत् अप्राधान्यमागतं चेत् तदर्थं दर्शयेत. प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति. स्वसामर्थ्यवशेनैव वाच्यार्थप्रतिपादनम् यथा व्यापार निष्पत्तौ पदार्थोऽनविभाव्यते. इदानीम् अत्र विद्यमानक्रमेण अहं वदामि, स्वसामर्थ्यवशेनैव वाक्यार्थप्रतिपादनम् यद्यपि पदार्थानां काचित् प्रतिपत्तिः प्रथमं भवति, अनन्तरं वाक्यार्थः अस्ति किल सः वाक्यार्थः, तस्य स्वसामर्थ्येनैव वाक्यार्थस्य प्रतिपादनं भवति. प्रथमं पदानामर्थः कश्चन अवलम्ब्यते चेदपि अनन्तरं वाक्यार्थः स्वशक्त्या एव स्वसामर्थ्यवशेनैव वाक्यार्थस्य प्रतिपादनं भवति. यथा तादृशव्यापारनिष्पत्तौ पदार्थो न विभाव्यते. यदा तस्य व्यापारस्य निष्पत्तिः भवति, नाम वाक्यार्थावगमनं यदा भवति, तदा पदार्थः न विभाव्यते. पदार्थः पुनः पृथक् पृथक् रूपेण तिष्ठः न भवति, नावगम्यते. यद्यपि आरम्भे सहायकरूपेण भवन्ति पदार्थाः, तथापि तद्वारा अनन्तरं वाक्यार्थस्य मुख्यत्वम् आगच्छति, सम्पूर्णवाक्यार्थस्य अवगमनं भवति. तदनन्तरं यदा तद् सम्पूर्णम् अवगतं भवति, तन्मध्ये एकैकस्य अर्थः पुनः पृथक् पृथक् पार्थक्येन न तिष्ठति. पदार्थः न विभाव्यते, विभाव्यते नाम पार्थक्येन तिष्ठति. तदनन्तरं पदार्थस्य पृथक् पृथक् इति अवस्थानं न भवति. रामहारण्यम् अगच्छत् इति वाक्यं कुर्मश्चेत् अस्माकं बोधः जातः चेत् पुनः रामः नाम दशरथपुत्रः एतैकस्य पुनः पार्थक्येन अस्माकं ज्ञानं तत् नावश्यकं. तत् पृथक् तत् न तिष्ठति, अखण्डं ज्ञानम् अस्माकं प्राप्यते. अतः यथा व्यापारनिष्पत्तौ व्यापारस्य निष्पत्तिः उत्पादनं यत्र भवति तत्र एषः पदार्थः पुनः न विभाव्यते, नाम पार्थक्येन पुनः न परिगण्यते, नावगम्यते. यथा स्वसामर्थ्यवशेनैव वाक्यार्थः वाक्यार्थं प्रकाशयन्नपि पदार्थः व्यापारनिष्पत्तौ न विभाव्यते विभक्तते. पदार्थ वाक्यार्थं व्यापयित्वा अनन्तरं सः विरतः तत् पृथक् तस्य अवगमनं न भवति. तदेव तद्वत्सते तथांशोऽर्थो
तद्वत्सते तथांशोऽर्थो
वाच्यार्थविमुखात्मनाम्
वाच्यार्थविमुखात्मनाम्
बुद्धौ तत्त्वार्थदर्शिन्याम्
बुद्धौ तत्त्वार्थदर्शिन्याम्
दृष्ट्येवावभासते
दृष्ट्येवावभासते
तद्वत् सचेतसाम् सः अर्थः कः अर्थः वाच्यार्थविमुखात्मनाम् सः अर्थः सार्थनाम लिङ्ग्यार्थः. यद्यपि प्रथमं सः कञ्चन वाच्यार्थं गृह्णाति, किन्तु अनन्तरं वाच्यार्थे सः विमुखः भवति. वाच्यार्थे तस्य अभिरुचिरेव नास्ति, व्यङ्ग्यार्थे अभिरुचिः भवति, किन्तु प्रथमं तदेव गृहीतवान् भवति. अतः वाच्यार्थविमुखार्थानां युतात्मनां सः व्यङ्ग्यार्थः बुद्धौ झटि एव अवभासते. तस्य बुद्धौ झटिति एव स्फुरति. कीदृशबुद्धौ तत्त्वार्थदर्शिन्याम् सत्त्वरूपम् अर्थम् दर्शयति तस्याम् बुद्धौ तत्त्वार्थदर्शिन्याम् बुद्धौ झटि एव अवभासते. नाम वाच्यार्थ अवगमनविषये सः कञ्चन प्रयत्नम् करोति एव, किन्तु तद् केवलम् प्रथमसोपानम्. आरम्भे किञ्चिदेव प्रयत्नम् करोति, यदा सः अर्थः अवगम्यते तद्वारा लिङ्गार्थः यदा प्रतीयते सः पुनः वाच्यार्थविषये सर्वथा विमुखः वाच्यार्थविमुखः भवति वाच्यार्थविषये वाच्यार्थविषये सर्वथा विमुखः एव भवति. तादृशानां जनानां व्यङ्ग्यार्थः झटिति स्फुरति. इत्युक्ते वाच्यार्थमेव गृहीत्वा तत्रैव आदरवान् भवति चेत् व्यङ्ग्यार्थः न स्फुरति एव. तस्मिन् दिने उदाहरणमुक्तं लीलाकमलपत्राणि गणयामास पालसी पद्यमुक्तमासीत् किल, यदि भवन्तः वाच्यार्थमेव गृह्णन्ति लीलाकमलपत्राणि गणयामास गणनं किं गणसङ्ख्याने इति दातु कति सन्ति इति गणनं, अतः सप्त वा अष्ट वा इति पार्वती गणनां कृतवती इति तावन्तमेव अर्थं गृहीत्वा भवन्तः मुखलितलोचनाः उपविशन्ति चेत् नेत्रेणीति उपविशन्ति चेत् द्वितीयस्य अर्थस्य स्फुरणमेव न भवति. व्यङ्ग्यार्थविषये विमुखाः भवन्ति चेत् वाच्यार्थे विमुखाः भवन्ति चेदेव वाच्यार्थविमुखात्मना व्यङ्ग्यार्थस्य प्रतीतिः भवति. कुत्र बुद्धौ भवति, कीदृशबुद्धौ, बुद्धौ तत्त्वार्थदर्शिन्याम्, तत्त्वार्थदर्शिन्यां बुद्धौ झटिति एव अवभासते. अतः वाच्यार्थोऽपि भवति एव व्यङ्ग्यार्थोऽपि भवति एव, वाच्यार्थद्वारा व्यङ्ग्यार्थप्रतीतिः भवति इत्यपि अङ्गीकुर्मः एव, तथापि प्राधान्यं तु व्यङ्ग्यार्थस्य एव इत्युक्तमभवत्. अनन्तरम् एवं वाच्यव्यतिरेकिणः व्यङ्ग्यस्यार्थस्य සද්භාවං ප්‍රතිපාද්‍ය ප්‍රකට උපයි ප්‍රකටේ උපයෝජයෙන් ආහා ඉවම් වාච්‍ය විදේකිනහ ලිංගස්ස අර්ථය වාච්‍යාර්ථා ලිංගස්ස ලිංගස්ස අර්ථස්ස සද්භාවං ඉරුලිකේ නොපත්තිත්වම් ප්‍රතිපාද්‍ය ඒතාවස්කරෙන් ප්‍රතිපාද්‍ය ප්‍රකෘතේ උපයෝගයෙන් ප්‍රකෘතේ තස්ස උපයෝගම් කරුන් සහවදති
යත්‍රාර්ථශබ්දෝවා
සමුපසර්ජනී කෘතත්වාර්ථෝ
සමර්ථසමුපසර්ජනී කෘතත්වාර්ථෝ
සමර්ථමිති නොක්තවාන් යත්‍රාර්ථශබ්දෝවා
යත්‍රාර්ථශබ්දෝවා
සමර්ථමුපසර්ජනී කෘතත්වාර්ථෝ
සමර්ථමුපසර්ජනී කෘතත්වාර්ථෝ
යන්තකාව්‍යවිශේෂහ
යන්තකාව්‍යවිශේෂහ
සත්පරිවිති පූරිති කච්චිතහ ध्वनि नाम कहा इति चेत् प्रतियमानः अर्थः भवति इति तु प्रतियमानं पुनरन्यमेव इत्यादि सर्वम् उक्तमस्ति ध्वनि नाम कहा इति पृच्छति चेत् एतदेकः पुच्छं पद्यं ध्वनिलक्षणं वदति यत्र ध्वनि नाम तत्र अन्ते बोध्य अवगन्तरि तर्हि ध्वनिः नाम कः इति चेत् वस्तुतः पञ्चप्रकारैः अर्थं वदन्ति ध्वनिः नाम कः इति इत्युक्ते शब्दोऽपि ध्वनिः अर्थोऽपि ध्वनिः अनन्तरं तत्र एकः व्यापारः इति भवति सः व्यापारोऽपि ध्वनिः तादृशध्वनिः यत्र अस्ति तद् काव्यमपि ध्वनिः अत्र विशिष्य काव्यं ध्वनिः तं ध्वनिकाव्यम् इति नाम किम् इति चेत् यत्र अर्थः शब्दः वा यत्र नाम यस्मिन् काव्ये यत्र नाम यस्मिन् काव्ये अर्थः शब्दः वा कुत्रचित् अर्थः कुत्रचित् शब्दः सः उपसर्जनीकृतस्वार्थौ आत्मानेनैव उपसर्जनं कृत्वा उपसर्जनं नाम किं गौणम् प्रधानं न आत्मानम् अप्रधानं कृत्वा उपसर्जनीकृतस्वार्थौ स्वस्य अर्थम् अप्रधानं कृत्वा यत्र तं व्यङ्कः नाम व्यङ्ग्यार्थम् अभिव्यञ्जयतः तं नाम व्यङ्ग्यार्थम् व्यङ्कः नाम व्यञ्जयतः एतद् द्विवचनमस्ति व्यञ्जि व्यङ्कः इति अतः व्यङ्कः इति द्विवचनं तम् अर्थं व्यङ्कः सः ध्वनिः इति सूरिभिः कथितः सः ध्वनिः यत्र एवं भवति सः काव्यविशेषः सः काव्यविशेषः ध्वनिः इति पण्डितैः कथितः सूरिभिः कथितः तर्हि ध्वनिः नाम कः इति चेत् यत्र नाम यस्मिन् काव्ये शब्दः वा अर्थः वा अर्थः वा शब्दः वा आत्मानम् उपसर्जनीकृत्य कृते शब्दोऽपि अथवा अर्थोऽपि आत्मानमेव गौणम् कृत्वा व्यङ्गार्थम् अभिव्यञ्जयति अभिव्यञ्जयः अभिवचनमस्ति अतः यत्र व्यङ्गार्थम् अभिव्यञ्जयतः सः काव्यविशेषः ध्वनिः इति पूरिभिः कथितः अस्ति एतदेव किमपि एकं काव्यमस्ति तस्मिन् काव्ये केचन शब्दाः सन्ति केचन अर्थाः अपि सन्ति एते शब्दाः अर्थाः वा आत्मानं गौणं कृत्वा अन्यं विशिष्टं व्यङ्ग्यार्थं यत्र अभिव्यञ्जयतः तादृशं काव्यं यदस्ति तस्य एव काव्यविशेषस्य अतः यत्र केवलं वाच्यार्थे एव चमत्कारः भवति तादृशं तु ध्वनिकाव्यं न सामान्यं किञ्चित् काव्यम् इति वक्तुं शक्यते ध्वनिकाव्यम् इति तत्र न उच्यते व्यवहारः न क्रियते अतः ध्वनेः लक्षणविधायकं सूत्रम् अथवा पद्यं किमिति पृच्छति चेत् एतदेव ध्वनिः नाम कः इति पृच्छति चेत् यत्र अर्थशब्दो वा समर्थमुपसर्जनीकृतस्वार्थौ व्यङ्कः काव्यविशेषः सद्ध्वनिरिति सूरिभिः कथितः परीक्षाविषये न जानामि कदाचित् सद्ध्वनिरिति सूरिभिः कथितः सः इति पृच्छेयुः තරම් ඒක ප්‍රමුක්තයේ වගේ ඇතිවෙනවා. සද්දලෙදි සූරි විකසිත
අන්තිම මිදික මොහොතේ ඒක සුන්දරතා සෞන්දර්යම නීව ධ්වනි හේතිය.
යත්‍ර අර්ථහ නාම වාක්‍ය විශේෂහ වාචක විශේෂහ සම්බන්ධව අර්ථහ නාම වාක්‍ය විශේෂ පච්චාර්ථ විශේෂ අර්ථහ නාම වාචක විශේෂව තමර්ථම් යන්තහ තමර්ථම් නාම වෙන්ගාර්ථම් යන්තහ සහ කාව්‍ය විශේෂහ ඉතිහි ඉති අනේන වාච්‍ය වාචක කාර්ත්ව හේතුභ්‍යා උපමාදිභ්‍යා අනුප්‍රාසාදිත්‍යස්ස විහත්තහ ඒව ධනේ විෂයහ इति දැක්සිතම් බෝසතය දයින් පුරම් අලංකාරාසන්දී රීතයසන්දී इत्यादि දෙදු ප්‍රවන්තහ තේ සරුවේදී වාක්‍ය වාචක කාරුප්පාදායක ඒදේ කිම් අලංකාරා අප්‍රේක්ෂාහ සන්ති කේත अथवा එච්චරේ වෙනි ශබ්ද අලංකාරම් කිකරොති කේ එදාට සත්‍යනම් අනුප්‍රාසාදීන ප්‍රයෝගස්තත හදේ තේ ශාලංකාරය තිබුණ තවදන්ති කියලා තද වාක්‍ය වාචකණම් වෙදේ තමයි අතහ වාක්‍ය වාචක කාර්ත්ව හේතුභ්‍යා උපමාදීභ්‍යා අනුප්‍රාසාදීභ්‍යස්ස ධ්වනි විෂයා විහත්තහේව භින්නේව इति දැක්සිතම භවතනේ අතහ වාක්‍ය වාචක කාර්ත්ව හේතවහයේ සන්ති තේ සර්වේ අලංකාරය ලිංග වෙන්දක කාර්ත්ව හේතව
ඔම් ශාන්ති ශාන්ති ශාන්ති.